इयम् आकाशवाणी सम्प्रति सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। रक्षामन्त्री राजनाथ सिंहः अद्य देशस्य रक्षा उत्पादने निजीक्षेत्रस्य वर्धमानां सहभागितां प्रकाशयन् अवदत् यत् भारतस्य रक्षानिर्यातः अधुना 23.5 कोटिरूप्यकाणि अभवत्। छत्तीसगढ़स्य कांकेर मण्डले 21 माओवादिनः स्वशस्त्रैः सह आत्मसमर्पणं कृतवन्तः। एतेषु माओवादिषु 13 जनाः वरिष्ठाः कार्यकर्तारः आसन्। सर्वोच्चन्यायालयेन अद्य सर्वेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यः च सूचनाः प्रदत्ताः यस्मिन् आभासीय निगडन भ्रष्टाचारैः सम्बद्धानां पञ्जीकृतानां FIR इति प्रथम सूचना प्रतिवेदनानां विवरणं याचितम्। छठपूजायाम् अद्य तृतीये दिने श्रद्धालवः अस्तंगताय सूर्याय संध्या अर्घ्यं समर्पयन्ति। अपि च मोन्थाचक्रवातः बंगालखात्यां चेन्नई नगरात् 60.5 यावत् किलोमीटर दक्षिणपूर्व दिशि स्थितः अस्ति। अथ वार्ताः विस्तरेण। रक्षामन्त्री राजनाथ सिंहः अद्य देशस्य रक्षा उत्पादने निजीक्षेत्रस्य वर्धमानां सहभागितां प्रकाशयन् अवदत् यत् भारतस्य रक्षानिर्यातः अधुना 23.5 कोटिरूप्यकाणि अभवत्। नवदिल्ल्यां SIDM इत्यस्य वार्षिक सम्मेलनं सम्बोधयन् मन्त्रिणा उक्तं यत् विगत दशके देशस्य आन्तरिक रक्षा उत्पादनं 15.5 लक्ष कोटिरूप्यकाणि यावत् वर्धितं तथा च अस्मिन् निजीक्षेत्राणां 33,000 कोटिरूप्यकाणां योगदानम् अस्ति।
पॉलिसी एडुकेशन से लेकर छोटे बड़े रिफॉर्म्स तक हर जगह हमें SIDM का कंट्रीब्यूशन देखने को मिलता है। रक्षा मंत्रालय के साथ मिलकर SIDM ने डिफेंस एक्विजिशन प्रोसीजर 2020, डिफेंस प्रोक्योरमेंट मैनुअल 2025, डिफेंस प्रोडक्शन एंड एक्सपोर्ट प्रमोशन पॉलिसी और पॉजिटिव इंडिजनाइजेशन लिस्ट जैसे कई इंपॉर्टेंट रिफॉर्म्स को शेप देने में बहुत ही महत्वपूर्ण भूमिका निभाई है।
ऑपरेशन सिंदूर इत्यस्य सफलतायाः प्रशंसां कुर्वन् मन्त्रिणा नवान्वेषणस्य विन्यासस्य निर्माणस्य च क्षेत्रेषु उद्योगजगतः योद्धॄणां कार्यस्य प्रशंसा कृता। केन्द्रीय गृहमन्त्री अमितशाहः अद्य सूचितवान् यत् छत्तीसगढ़स्य कांकेरमण्डले 21 माओवादिनः स्वशस्त्रैः सह आत्मसमर्पणं कृतवन्तः। सामाजिकान्तर्जालीय पटले श्रीशाहः अवदत् यत् 21 माओवादिषु 13 जनाः वरिष्ठाः कार्यकर्तारः आसन्। 26,000 मार्च मासस्य 31 दिनाङ्कपर्यन्तं नक्सलवादस्य उन्मूलनाय स्वसंकल्पस्य विषये प्रवदन् मन्त्रिणा अद्यापि उक्तं यत् अन्येऽपि माओवादिनः यथाशीघ्रम् आत्मसमर्पणं कुर्वन्तु इति। सर्वोच्च न्यायालयेन अद्य सर्वेभ्यः राज्येभ्यः केन्द्रशासित प्रदेशेभ्यश्च सूचनाः प्रदत्ताः यस्मिन् आभासीय निगडन भ्रष्टाचारैः सम्बद्धानां पञ्जीकृतानां FIR इति प्रथम सूचना प्रतिवेदनानां विवरणं याचितम्। सर्वोच्च न्यायालयेन एतेषां सर्वेषां प्रकरणानाम् अन्वेषणाय CBI इति केन्द्रीयान्वेषण अभिकरणस्य प्रति समर्पयितुम् अपि विचारः कृतः। छठपूजायाम् अद्य तृतीये दिने श्रद्धालवः अस्तंगताय सूर्याय संध्यार्घ्यं समर्पयन्ति। सूर्यः सम्पूर्णे दिने यत् प्रकाशम् उष्णता सुऊर्जा च प्रददाति तस्यैव कृते कृतज्ञतार्पणाय क्षणः अस्ति। अस्मिन् अवसरे भक्ताः नदीतीरेषु अथवा जलाशयेषु समागच्छन्ति। पारम्परिक रीत्या वेणुदण्डेन निर्मितं प्रसादेन पूरितं च पात्रं वहन्ति। अस्तमानाय सूर्याय प्रणमन्ति। स्वसन्ततीनां परिवारस्य च समृद्धेः कल्याणस्य च प्रार्थनां कुर्वन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः CP राधाकृष्णनवर्यः, प्रधानमन्त्री नरेन्द्रमोदी च अस्मिन् अवसरे नागरिकाणाम् अभिवादनं कृतवन्तः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य भारतस्य पूर्वराष्ट्रपतेः KR नारायणन वर्यस्य जन्मदिवसावसरे राष्ट्रपतिभवने तस्मै पुष्पाञ्जलिम् अर्पितवती। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मू वर्या अद्य प्रोक्तवती यत् विकसित भारतस्य निर्माणे युवाधिकारिणां नेतृत्वे भविष्ये सज्जः आरक्षिबलं प्रमुखां भूमिकां निर्वहिष्यति। राष्ट्रपतिः नवदिल्ल्यां भारतीय आरक्षक सेवायाः 77वें राष्ट्रिय राइफल्स इत्यस्य 24,000-तम वर्षस्य परिवीक्षाधीनः अधिकारिणः सम्बोधयन्ती इदमुक्तवती। सावोचत् यत् ये युव अधिकारिणः शीघ्रमेव अधिकारस्य पदेषु अधिगमिष्यन्ति ते मनसि स्थापयेयुः यत् अधिकारेण सह उत्तरदायित्वमपि आगच्छति। केन्द्रीय स्वास्थ्य मन्त्री परिवार कल्याण मन्त्री जेपी नड्डा अद्य प्रशासनस्य प्रत्येकस्तरे नैतिकाचरणं संस्थागतकरणाय जागरूकतायाः संस्कृतेः निर्माणस्य च महत्वम् अधोरेखितवान्। नवदिल्ल्यां सतर्कता जागृति सप्ताहस्यावसरे मन्त्रालयस्य वरिष्ठान् अधिकारिणः कर्मचारिणः च सम्बोधयन् श्रीनड्डा एतदुक्तवान्। सः अवदत् यत् कर्तव्याणाम् अकर्तव्याणां च सूचीं सरलतया सामान्यभाषया सज्जीकर्तव्यं येन जनाः सद्भावनया अनुकम्पया वा किमपि अशुभं न करिष्यन्ति। भारतीय अन्तरिक्ष अनुसन्धान संघटनेन LVM3 इति प्रक्षेपणयानं श्रीहरिकोटायाः सतीश धवन अन्तरिक्षकेन्द्रस्य प्रक्षेपणकेन्द्रे स्थानान्तरितम्। CMS3 इति सम्प्रेषण उपग्रहेण सह सम्पूर्णतया संयोजितम् एकीकृतं च एतत् प्रक्षेपणयानम् अस्ति यत् नवम्बर मासस्य द्वितीये दिनांके प्रक्षेपितं भविष्यति। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः भारतीय कृषि अनुसन्धान परिषदम् ICSR इत्यस्मै कृषि शिक्षायाः उन्नत्यै सर्वाणि रिक्तस्थानानि तत्क्षणमेव पूरयितुम् आदिष्टवान्। अद्य नवदिल्ल्यां राष्ट्रिय कृषि छात्र सम्मेलनम् अभिसम्बोधयन् मन्त्रिणा इदमुक्तम्। निर्वाचनायोगेन अद्य घोषितं यत् द्वितीय चरणस्य अन्तर्गतं 12 राज्येषु केन्द्रशासित प्रदेशेषु च मतदातृ सूच्यां विशेष गहन संशोधनं क्रियते। अद्य नवदिल्ल्यां वार्ताहरान् सम्बोधयन् मुख्य निर्वाचनायुक्तः ज्ञानेश कुमारः अवदत् यत् अस्य संशोधनस्य उद्देश्यं मतदातृ सूचीम् इतोप्यधिकं पारदर्शिका दोषमुक्ता च कर्तुमस्ति। सः अवदत् यत् द्वितीयस्य चरणस्य अन्तर्गतं SIR इत्यस्य संचालनं चरणबद्ध रूपेण भविष्यति इति।
सबने मिलकर मतदाता सूची को शुद्ध बनाने का कार्य किया और नतीजा आपके सामने है। जीरो अपील्स अर्थात बिहार की मतदाता सूची अधिकतम शुद्ध मानी जाएगी। अब फेज 2 बारह राज्यों में या संघ शासित प्रदेशों में आरम्भ होने वाला है।
निर्वाचनायोगः इत्यपि अघोषयत् यत्र यत्र SIR पुनरीक्षणं भविष्यति तेषु सर्वेषु 12 राज्येषु केन्द्रशासित प्रदेशेषु च मतदातृ सूचयः अद्य मध्यरात्रौ स्थगिता भविष्यन्ति इति। सः अवदत् यत् एतेषु राज्येषु केन्द्रशासित प्रदेशेषु च BLO इति बूथस्तरीय अधिकारिणः विद्यमान मतदातृभ्यः विशिष्ट गणना प्रपत्राणि पूरयितुं वितरिष्यन्ति। मुन्था चक्रवातः बंगालखात्यां चेन्नई नगरात् 60-65 यावत् किलोमीटर दक्षिण पूर्व दिशि स्थितः अस्ति। भारतीय राष्ट्रिय महासागर सूचना सेवा केन्द्रस्य अन्तिम प्राप्त सूचनानुसारं अग्रिमेषु 12 होरासु पश्चिम मध्य बंगालखात्याः उपरि पश्चिम वायव्य दिशं निरन्तरं गम्यमानस्य सम्भावना विद्यते। ततः परं श्वः तीव्रचक्रवातरूपेण भविष्यति इति वार्ताः।